अथ श्रीबुधाष्टोत्तरशतनामस्तोत्रम्।
बुधो बुधात्थितः सौम्यः सौम्यचित्तशुभप्रदः दृढं व्रतो दृढफलः श्रुतिजालप्रबोधकः सत्यवासः सत्यवचाश्रेयसाम्पतिरव्ययः सोमजस्सुकरः श्रीमान् सोमवंशप्रदीपकः वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्वरः विद्याविचक्षणविभुर्विद्वत्प्रीतिकरो बुधः विश्वानुकूलसञ्चारी विशेषविनयान्वितः विविधागमसारज्ञो वीर्यवान्विगतज्वरः त्रिवर्गफलदोऽनन्तस्त्रिदशाधिपूजितः बुद्धिमान् बहुशास्त्रज्ञो बलीबन्धविमोचकः वक्रादिवक्रगमनो वासवो वसुधाधिपः प्रसादवदनो वन्यो वरेण्यो वाग्विलक्षणः सत्यवान् सत्यसङ्कल्पः सत्यबन्धुः सदादरः सर्वरोगप्रशमनः सर्वमृत्युनिवारकः वाणिज्यनिपुणो वश्यो वातान्देवातरोगकृत् स्थूलस्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः अप्रकाशप्रकाशात्मा घनो गगनभूषणः विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः चारुशीलस्वप्रकाशो चपलश्चलितेन्द्रियः उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवङ्करः पीताम्बरो पीतवपुः पीतच्छत्रध्वजाञ्चितः खड्गचर्मधरः कार्यकर्ता कलुषहारकः आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः चाम्पेयपुष्पसङ्काशश्चारणश्चारुभूषणः वीतरागो वीतभयो विशुद्धकनकप्रभः बन्धुप्रियो बन्धमुक्तो बाणमण्डलसंस्कृतः अर्क्येशानप्रदेशस्थस्तर्कशास्त्रविशारदः प्रशान्तप्रीतिसंयुक्तः प्रियकृत्प्रियभाषणः मेधावीमाधवासक्तो मिथुनाधिपतिः सुधीः कन्याराशिप्रियः कामप्रदो घनफलाश्रयः बुधस्यैवम् प्रकारेण नाम्नामष्टोत्तरम् शतम्।
इति श्रीबुधाष्टोत्तरशतनामस्तोत्रम्।